त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात्। अथ महामृत्युञ्जयस्तोत्रम्। अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेयऋषिः अनुष्टुप् छन्दः श्रीमृत्युञ्जयो देवता गौरीशक्तिः मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थम् सकलैश्वर्यप्राप्त्यर्थम् च जपे विनियोगः ध्यानम् चन्द्रार्काग्निविलोचनम् स्मितमुखम् पद्मद्वयान्तस्थितम् मुद्रावाशमृगाक्षसूत्रविलसत्पाणिम् हिमांशुप्रभम् कोटीन्द्रप्रकलत्सुधाप्लुततनुम् हारादिभूषोज्ज्वलम् कान्तम् विश्वविमोहनम् पशुपतिम् मृत्युञ्जयम् भावये। ॐ रुद्रम् पशुपतिम् स्थानम् नीलकण्ठमुमापतिम् नमामि शिरसा देवम् निन्दो मृत्युः करिष्यति। नीलकण्ठम् कालमूर्तिम् कालज्ञम् कालनाशनम् नमामि शिरसा देवम् निन्दो मृत्युः करिष्यति। नीलकण्ठम् विरूपाक्षम् निर्मलम् निलयप्रभम् नमामि शिरसा देवम् किम् नो मृत्युः करिष्यति। वामदेवम् महादेवम् लोकनाथम् जगद्गुरुम् नमामि शिरसा देवम् किम् नो मृत्युः करिष्यति। देवदेवम् जगन्नाथम् देवेशम् वृषभध्वजम् नमामि शिरसा देवम् किम् नो मृत्युः करिष्यति। गङ्गाधरम् महादेवम् सर्वाभरणभूषितम् नमामि शिरसा देवम् किम् नो मृत्युः करिष्यति। अनाथः परमानन्दम् कैवल्यपदगामिनम् नमामि शिरसा देवम् किम् नो मृत्युः करिष्यति। स्वर्गापवर्गदातारम् सृष्टिस्थितिविनाशकम् नमामि शिरसा देवम् किम् नो मृत्युः करिष्यति। उत्पत्तिस्थितिसंहारकर्तारमीश्वरम् गुरुम् नमामि शिरसा देवम् किम् नो मृत्युः करिष्यति। मार्कण्डेयकृतम् स्तोत्रम् यः पठेच्छिवसन्निधौ तस्य मृत्युभयम् नास्ति नाग्निचोरभयम् क्वचित्। शतावृत्तम् प्रकर्तव्यम् सङ्कटे कष्टनाशनम् शुचिर्भूत्वा पठेत् स्तोत्रम् सर्वसिद्धिप्रदायकम्। मृत्युञ्जय महादेव त्राहि माम् शरणागतम्। जन्ममृत्युजरारोगैः पीडितम् कर्मबन्धनैः तावकस्त्वद्गतप्राणस्त्वचितोऽहम् सदा मृड इति विज्ञाप्य देवेशम् त्र्यम्बकाख्यमनुम् जपेत्। नमः शिवाय साम्बाय हरये परमात्मने प्रणतक्लेशनाशाय योगिनाम् पतये नमः।